अग्न्यं वो देवमग्निभिः सजोषा जजिष्ठम् दूतमध्वरे कृणध्वम् यो मर्त्येषु निध्रुभिरृता पादपर्मोर्धा घृतान्नः पावकः प्रोथदश्वो न जपसे विश्यन्यदा महः संवरणाद्व्यस्थात् आदस्य पातो अनुपाति शोचिरधस्पते व्रजनम् कृष्णमस्ति उद्यस्य तेन वजातस्य वृष्णाग्ने चरन्त्यजरा इधानाः अच्छाद्यावरुषो धूम एति सन्धूतो अग्न ईयसे हि देवान् विजस्यते पृथिव्याम् पाजो अश्रे तृषजदन्ना सपभृक्तजम्भैः सेनेव सृष्टा प्रसिदिष्ट एति जवन्नदस्म जुह्वा विवेक्षे तमिद्दोषातमुषसि जपिष्ठमग्निमत्यन्नपर्जयन्तनराः निशिषा ना अतिथिमस्य जोनौ देदादशोचिराहुतस्य वृष्णाः स्वसन्दृक्ते स्वनेकप्रदेकम् विजदृक्पो न रोचस उपाके दिवो न ते तञ्जतुरे दिशुष्पश्चित्रो न सौरः प्रतिचक्षिभानम् यथा वस्वाहाग्नजेदाशेमपरेणाभिरघृतमद्भ्यश्च हव्यैः तेभिर्नो अग्ने अमितैर्महोभिः शदम्बोर्भिराजसे भर्निपाहि या वा ते सन्ति दाशुषे अधृष्टा गिरो बाजाभिर्नृपतीरुरुष्याः ताभिर्नः सोना सहसो निपाह्यस्मत्सूरेञ्जरित्रोञ्जातवेदः निर्यत्पोते वस्वधिश्वजर्गात् स्वजा कृपातन्वा आरोचमानः आजो मात्रो ऋषेञ्जो जनिष्टदे भजज्याज सुक्रतुः पावकः एतानो अग्ने सौभगादिदेह्यभिक्रतुम् सुचेतसंवदेम विश्वा स्तोत्रभ्यो गृणते च सन्तु योजम्पादस्वस्तिभिः सदा नः